क्षेत्रस्य पतिना वयम् हितेने व्रजयामसि गामस्वम् पोषयित्वा सनो मृळाजीदृशे क्षेत्रस्य पते मधुमन्दमूर्तिम् धेनुमीपयो अस्मासु धुक्ष्व मधुश्रुतम् घृतमीप सुपूतमृतस्य नः पतयो मृळयन्तु मधुपतिरोषधीर्यावहापो मधुमन्नो भवत्वन्तरिक्षम् क्षेत्रस्य पतिर्मधुमान्नो अस्पृश्यन्तो अन्वेन चरेण सुनम् वाहासुनम् नरः सुनम् क्लेशतुलाङ्गलम् सुनम् वरत्राबध्यन्ताम् सुनमष्टामुदिङ्गय सुनासीराम् वाचम् ्रथुपयाः येने मामुपासिञ्चतम् अर्वाचीषु भगे भवसि देवन्दामहे त्वा यथा नः सुभगासि यथा नः सुफलासि इन्द्रस्यीताम् निगृह्णादुताम् पूषाणो यच्छतु सा नः पयस्वती दुहामुत्तरामुत्तराम् समाम् सुनम् नः पादा विग्रेषन्तु भूमिम् सुनम् कीलासा अभियन्तु बाहैः सुनम् पर्जन्यो मधूनापयोभिः सुनाधीरा सुनमस्मासु धत्ताम्